एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य सचिवालयस्य गतदिने उपविष्टेन उपवेशेन अध्यक्षेण प्रधानमन्त्रिणा च केपी शर्मा ओलिना अपराध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन च संघटितं दलस्य समस्या समाधान सम्बद्धं कार्यदलं अनुमोदितं वर्तते। प्रधानमन्त्री निवासे बालवाटार स्थाने उपविष्टे सचिवालयोपवेशे अध्यक्षद्वयेन कार्यदलस्य विषय ज्ञापितं कार्यदलमेतत् उपवेशेन अनुमोदितं चेति नेकपा दलस्य प्रवक्ता नारायणकाली श्रेष्ठः अज्ञापयत्। कार्यदलेन प्रतिवेदनम् अध्यक्षद्वयस्य समक्षं तदनु सचिवालयोपवेशे च प्रस्तुष्यते। प्रधानमन्त्रिणा केपी शर्मा ओलिना सांविधानिकायोग प्रवृत्तिषु पदेषु नियुक्ते सम्बन्धे नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवाविदेन च सह ह्यो विमृष्टम्। प्रधानमन्त्री निवासे बालवाटार स्थाने विहिते तस्मिन् विमर्शने सांविधानिकायोगेषु विश्वविद्यालयेषु च रिक्तपदानां नियुक्तेः कोरोना संक्रमणस्य जलविप्लव भूस्खलनयोश्च सामयिक विषयेषु विमृष्टमासीत्। सांविधानिकायोगानां रिक्तपदेषु सहमतेः आधारेण शीघ्रं नियुक्तेः विषये सहमतिः धृतेति विमर्शने सहभागी नेकपादलस्य नेता सुभाष नेवाङ अज्ञापयत्। विमर्शनस्य क्रमे सभापतिना देवाविदेन कोरोना संक्रमणस्य जलविप्लव भूस्खलनादि सार्वजनिक महत्वानां च विषयेषु प्रधानमन्त्रिणः ध्यानम् आकर्षितम् आसीत्। कोरोना विषाणोः संक्रान्तेभ्यो जनेभ्यः दुर्व्यवहारं न कर्तुं स्वास्थ्य जनसंख्या मन्त्रालयेन अनुरुद्धम् अस्ति। स्वास्थ्य जनसंख्या मन्त्रालयेन ह्य आयोजिते नियमित संचार संक्षेप कार्यक्रमे मन्त्रालयस्य प्रवक्ता प्राध्यापक डा जागेश्वर गौतमः संक्रान्ताः जनाः अपहेलनस्य दृष्टिकोणेन विलोकिताः तेषां गृहेषु प्रचार पत्राणि च स्थापितानीति प्राप्तमिति भाषमाणः अनेन कार्येण संक्रान्ताः जनाः निरुत्साहिताः विधीयन्ते रोगगोपनस्य सम्भावना च प्रवर्धते इत्यतः दुर्व्यवहारं न कर्तुम् अन्वरुणत्। प्रवक्ता डा गौतमः संक्रमणस्य सततं प्रवर्धनस्य कारणात् अत्यावश्यक कार्याणि विहाय गृहात् बहिः न निष्कान्तुं निष्क्रमणाय अत्यावश्यकतायां सत्यां कोविड ऊनविंशतेः नियमाः अनिवार्यतः पालयितव्याश्चेति अभासत। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण ह्य देशस्य विभिन्नासु प्रयोगशालासु एकादश सहस्रेषु पञ्चशते विंशत्यां च जनेषु विहितेन परीक्षणेन एकाशीत्यधिक पञ्चशते जनेषु संक्रमणं पुष्टीभूतं वर्तते। एतदनुसारेण नेपाले अधुनावधि कोरोना विषाणोः संक्रान्तानां जनानां संख्या सप्तविंशतिः सहस्राणि शतद्वयम् एकचत्वारिंशत् च प्राप्तास्तीति मन्त्रालयेन ज्ञापितं वर्तते। ह्य अतिरिक्ताः शतं षष्टिश्च जनाः संक्रमणात् मुक्ताः अभवन्। एतदनुसारेण अधुनावधि सप्तदश सहस्राणि चतुश्शतं पञ्चनवतिश्च जनाः संक्रमणात् मुक्ताः अभवन् इति मन्त्रालयेन ज्ञापितं वर्तते। एवमेव काष्ठमण्डपे ऊनचत्वारिंशदधिक शतं ललितपुरे पञ्चदश भक्तपुरे चतुर्दश चेति सहितेषु ह्य उपत्यकायाम् षष्ट्यधिक शते जनेषु संक्रमणं पुष्टीभूतमिति मन्त्रालयस्य प्रवक्ता डा गौतमः अबोधयत्। कोरोना संक्रमणेन ह्य अतिरिक्तं जनत्रयम् अम्रियत। मृतकेषु रौतहट जनपदस्य द्वात्रिंशत् वर्षीयः पुरुषः मोरङ जनपदस्य षष्टिवर्षीयः पुरुषः काष्ठमण्डपस्य अष्टपञ्चाशत् वर्षीया महिला च सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। एतदनुसारेण कोरोना संक्रमणेन नेपाले अधुनावधि शतं सप्त च जनाः मृताः सन्ति। मृतकेषु त्र्यशीतिः पुरुषाः चतुर्विंशतिश्च महिलाः सन्तीति मन्त्रालयस्य प्रवक्ता डा गौतमः अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन कोविड ऊनविंशतेः संक्रान्तानां जनानां विहितस्य उपचारस्य कृते अनुदान प्रदानार्थं नैज चिकित्सालयेभ्यः रोगिणानां संख्या अभियाचिता वर्तते। मन्त्रालयस्य सहप्रवक्ता डा समीर कुमार अधिकारी कोविड ऊनविंशतेः शंकास्पदाः संक्रान्ताश्च व्यक्तिः संस्थाप्य विहितोपचारेभ्यः चिकित्सालयेभ्यः अनुदान प्रदानाय संक्रान्तानां जनानां चिकित्सालये निवसनस्य अवधिः तेषां संख्या च अभियाचिते स्तः इत्यबोधयत्। कोरोना संक्रान्तानाम् उपचारे आयुर्वेदिकौषधैः प्रभावकारिरूपेण कार्यं विहितम् अस्तीति आयुर्वेदस्य चिकित्सकैः ज्ञापितं वर्तते। कीर्तिपुरवर्तिनी आयुर्वेदानुसन्धान प्रशिक्षण केन्द्रे पञ्जीकृतानां शतस्य सप्ततिश्च संक्रान्तानां जनानां मध्ये प्रायः संक्रान्तेषु जनेषु आयुर्वेदिकौषधेषु प्रदत्तेषु सत्सु एतेषां स्वास्थ्य सुधारः दृष्टोऽस्तीति केन्द्रमेतत् प्रमाणयति। कोरोना विषाणोः संक्रमणस्य संकटः वर्धितः इति निगद्य आराष्ट्रं विभिन्नैः स्थानीय स्तरैः जनपद प्रशासन कार्यालयैश्च परिपिधानं निषेधाज्ञा च उद्घुष्टे स्तः। कपिलवस्तुनि परिपिधानस्य अवधिः भाद्रस्य सप्तम दिवसं यावत् वर्धापितो वर्तते। हेटौडो महानगर पालिकायाः सम्पूर्ण क्षेत्रेषु, मनहरी ग्रामपालिकायाः राजमार्ग क्षेत्रे च भाद्रस्य नवम दिवसं यावत् सुरक्षण वेष्टन विहितं वर्तते। झापा जनपदस्य दमक नगरे, सिन्धुपाल्चोक जनपदे धनुषायां च सप्ताहावधये परिपिधानं क्रियान्वितम् अस्ति। चितवन जनपदस्य पूर्वस्थ क्षेत्रेषु, जुम्ला जनपदस्य विभिन्न नासु नगरपालिकासु ग्रामपालिकासु च निषेधाज्ञा क्रियान्विता वर्तते। भक्तपुरस्य मध्यपुर ठिमी नगरपालिकया, बर्दिया जनपद प्रशासन कार्यालयेन, सिराहा जनपदेन च परिपिधानम् उद्घुष्टमस्ति। कोरोना विषाणोः संक्रमणस्य समुदाय प्रसरणं रद्धुम् आराष्ट्रं कतिपयैः अन्यैः स्थानीय स्तरैश्च परिपिधानं निषेधाज्ञा च उद्घुष्टे स्तः। भक्तपुर नगरपालिकया भक्तपुर नगरस्य त्रयोदशसु प्रवेश बिन्दुषु नगरे प्रवेशनाय कठोरता अवलम्बिता अस्ति। कोरोना संक्रमणस्य संकटं रोद्धुं क्रियान्वितायाः निषेधाज्ञायाः स्थानीय स्तर जनैः उल्लंघनस्य अनन्तरं चितवन जनपदस्य राप्तीनगरपालिकायाः प्रथमवडा क्षेत्रस्य पिप्ले स्थाने प्रहरिणा निर्लक्ष्य प्रहार विहितो वर्तते। सहायक प्रमुख जनपदाधिकारिणः नेत्र प्रसाद शर्मणः अनुसारेण स्थानीयानां सम्मर्देन एकीभूय निषेधाज्ञायाः उल्लंघनस्य अनन्तरं प्रहरिणा एकवारं निर्लक्ष्य प्रहार विहितोऽस्ति। भारत सर्वकारस्य सहयोगे नेपाले संचालितानां विकास निर्माणयोः परियोजनानां संयुक्त रूपेण अनुगमनं प्रबन्धनं च विधातुं संघटितस्य नेपाल भारतानुगमन संयन्त्रस्य अष्टमोपवेश सर्वासां परियोजनानां समीक्षया सह ह्यः सम्पन्नो वर्तते। नेपालस्य पक्षत परराष्ट्र मन्त्रालयस्य सचिवेन शंकरदास वैरागिणा, भारतस्य पक्षत नेपालाय भारतीय राजदूतेन विनय मोहन क्वात्राभिधेन च वित नेतृत्वे श्रव्यदृश्य प्रविधेः उपवेशे द्विपक्षीय सहयोगस्य अन्तर्गतानां परियोजनानां क्रियान्वयनस्य सम्बन्धे समीक्षा विहिता स्थिति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। राष्ट्रिय परीक्षा समित्या गतवर्षस्य एसईई नामिकायाः माध्यमिक शिक्षा परीक्षायाः परिणामः गतसायं सार्वजनीकृतो वर्तते। परीक्षायै लक्षचतुष्टयेन 82,000 षडशीत्यधिक नवशतेन च विद्यार्थिभिः आवेदनपत्रेषु पूरितेषु सत्स्वपि लक्षचतुष्टयस्य 72,000 78 विद्यार्थिनामेव परिणामः सार्वजनीकृतः इति समिते सदस्य सचिवः दुर्गा आर्यालः अज्ञापयत्। अवशिष्टानां विद्यार्थिनां नियमानुसारेण उपस्थिति विवरणम् अपर्याप्तं प्राप्तम्, आवेदनपत्र प्रपूरणे न्यूनता प्राप्ता चेति कारणेन परिणाम न प्रकाशित इति सदस्य सचिव आर्याल अज्ञापयत्।